एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम प्रवाचक चन्द्रकान्त पौडेल। राष्ट्रपतेः विद्यादेवी भण्डारिण समक्षम् निर्वाचन आयोगेन गतार्थिक वर्षस्य वार्षिक प्रतिवेदनम् प्रस्तुतम् वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्यः आयोजिते कार्यक्रमे प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया आयोगस्य पञ्चदशम् वार्षिक प्रतिवेदनम् अस्यैव माघ मासस्य द्वादश दिवसे सम्पन्नस्य राष्ट्रिय सभा सदस्यानाम् निर्वाचनस्य प्रतिवेदनम् च राष्ट्रपतेः समक्षम् प्रस्तौत्। आयोगस्य वार्षिक प्रतिवेदनम् गृह्णन्ति राष्ट्रपतिः भण्डारी निर्वाचने अधिकाधिकानाम् मतदातृन् सहभागिनो विधातुम् निर्वाचन प्रणालीं लैंगिक मैत्रीयुतां निर्मातुं सर्वेषां मतदातृणां मताधिकारं सुनिश्चेतुं मतदानस्थलानि केन्द्राणि च मतदातृ मैत्रीपूर्णानि विधातुं च परामृशत्। राष्ट्रपतिः भण्डारी शान्तये स्थिरतायै विकासाय च संविधानेन प्रचलित विधिना च निर्दिष्टायाः समयसीमायाः अभ्यन्तरे एव सर्वेषां निर्वाचनानां सम्पादनम् आवश्यकमस्तीति हेतोः आवधिकाय अन्य विधाय च निर्वाचनाय आयोगेन तत्परावस्थायां स्थेयम् इत्यत्र बलं प्रादात्। प्रतिवेदनं प्रस्तुवन् प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया स्थानीय स्तर प्रवृत्तीनां निर्वाचनानां संचालनं व्यवस्थापनं च लक्ष्यीकृत्य आयोगेन विधीयमानानां मतदाति नामावली पञ्जीकरणस्य मतदानस्थलानां मतदान केन्द्राणां च पुनरवलोकनस्य च कार्याणां विषये ज्ञापितवान्। प्रधानमन्त्रिणः शेरबहादुर देउवा भिदस्य नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेकपा एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य च मध्ये ह्यः सामयिक विषये विमर्शनं विहितं वर्तते। नेतृत्रयस्य मध्ये संसदः गतिरोधस्य अन्त्यस्य एमसीसी संविधायाः स्थानीय स्तराणां निर्वाचनस्य च विषयेष् विमृष्टमिति प्रधानमन्त्रिणः संचार संयोजकः गोविन्द परियारः अज्ञापयत्। प्रधानमन्त्रिणा देउवा भिदेन सह मेलनाय माओवादी केन्द्रस्य अध्यक्षः प्रचण्डः एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालस्य वालुवाटार स्थानं प्राप्तौ आस्ताम्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना प्रतिरोधि टीकाकरणस्य विवरणं प्रेषयितुम् अन्तर्गत निकायाः निर्दिष्टाः सन्ति। कोरोना प्रतिरोधि टीकाकरणाभिलेखस्य सम्बन्धे संघटितस्य अनुसन्धान समितेः ह्यः उपविष्टेन उपवेशेन स्वास्थ्य सेवा विभागस्य व्यवस्थापन महाशाखा सप्त प्रदेशानां स्वास्थ्यापूर्ति व्यवस्थापन केन्द्राणि सर्वे जनपद स्वास्थ्य कार्यालयाः स्थानीय स्तराश्च टीकाकरणस्य विवरणं प्रेषयितुं निर्दिष्टाः सन्तीति समितेः संयोजकः डाक्टर गुणराज लोहनी अज्ञापयत्। समित्या अस्यैव माघमास एकविंशं दिवसं यावत् टीकाकरणस्य विवरणं प्रेषयितुं निर्दिष्टं वर्तते। आराष्ट्रं ह्यः पञ्चसहस्रेषु शतद्वये द्विनवत्यां च जनेषु कोरोना विषाणोः संक्रमणं पुष्टीभूतं वर्तते। ह्यः अष्टसहस्राणि शतम् एकनवतिश्च जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः सन्ति। संक्रमणेन ह्यः अष्टौ जनाः मृताः। यस्तनावधि आराष्ट्रं उनशीति सहस्राणि शतद्वयं द्वासप्ततिश्च जनाः सक्रिय संक्रान्ताः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। गृहमन्त्री बालकृष्ण खाना जनपदेषु शान्ति सुरक्षायोः अवस्थायाः प्रहरी संगठने कोविड उनविंशतेः प्रभावस्य प्रहरीणां भोज्य पदार्थानां च विषयेषु ह्यो द्वादश जनपदानां प्रहरी प्रमुखैः सह दूरभाष सम्पर्कं संस्थाप्य अजानात्। गृहमन्त्री खान जनपदानां एतेषां विषयाणां हिमपातस्य अवस्थायाश्च सम्बन्धे एवम् अध्यगच्छत्। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः कथयति विश्वविद्यालयानां सुधाराय आवश्यक योजना निर्मीयमाणा वर्तते। ह्यः मन्त्रालये त्रिभुवन विश्वविद्यालयस्य उपकुलपतिना सहितानां सम्बद्ध जनानां सहभागितायां विहिते विमर्शने मन्त्री पौडेलः अवोचत् मन्त्रालयेन विश्वविद्यालयानां सुधाराय योजना निर्मीयमाणा स्थिति हेतोः देशस्य प्रतिशतम् अशीत्या विद्यार्थिभिः विहिताध्ययनेन त्रिभुवन विश्वविद्यालयेन नूतन योजनायां प्रस्तुतायां सत्यां शिक्षा मन्त्रालयेन क्रियान्वयनस्य प्रक्रियायां नीयते। मन्त्री पौडेलः प्रतिवर्षं खर्वतोऽपि अधिकं वित्तं चिकित्सा शिक्षायै विदेशेषु नियमानमस्तीति चर्चयन् अवासत काष्ठमण्डप विश्वविद्यालयेन त्रिभुवन विश्वविद्यालयेन च कार्यमेतत् निरोध्य नेपाले एव विद्यार्थिभ्यः शिक्षणस्य वातावरणं स्रष्टव्यम्। मन्त्री पौडेलः शैक्षिक गुणस्तरे मन्त्रालयेन हस्तक्षेपो न क्रियते इति चर्चयन् विद्यार्थिभ्यः नेपाले एव अध्ययनस्य वातावरणं स्रष्टुं मन्त्रालयेन आवश्यकान् सर्वान् सहयोगान् विधातुं प्रतिबद्धतां व्यक्तवान्। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रिणा शशि श्रेष्ठेन वीर चिकित्सालयाय नेपाल प्रहरी चिकित्सालयाय च कोरोना विषाणोः नियन्त्रण निरोधनयोः कृते यः उपकरणानि स्वास्थ्य सामग्र्यश्च प्रदत्ताः सन्ति। निर्मल लामा स्मृति प्रतिष्ठानस्य पक्षतो मन्त्री श्रेष्ठः नेकपा माओवादी केन्द्रस्य नेता लीलामणि पोखरेलश्च वीर चिकित्सालयस्य सघनोपचार कक्षाय त्रिंशतः शय्यानां प्रहरी चिकित्सालयाय च त्रिंशतः सहस्राणां शल्यक्रियाकालिक मुखावरणिकानां च हस्ता हस्तान्तरणम् अकुरुताम्। सर्वकारस्य स्वामित्वस्य नेपाल टेलिभिजन संस्थानेन स्वस्य स्थापनायाः सप्तत्रिंशः वार्षिकोत्सवः ह्यः समादृतो वर्तते। कोविड 19 संकटं विचार्य संस्थानेन सिंहप्रासाद स्थितात् प्रसारण कक्षात् संक्षिप्त रूपेण वार्षिकोत्सव समादित आसीत्। सार्वजनिक रूपेण समायोज्यमान वार्षिकोत्सव कोरोना महामार्या संकटस्य कारणेन सर्वकारेण क्रियान्वितं स्वास्थ्य मापदण्डं परिपाल्य समादित इति टेलीविजन संस्थानेन ज्ञापितं वर्तते। कार्यक्रमे राष्ट्रपतेः प्रधानमन्त्रिणः संचार सूचना प्रविधि मन्त्रिणश्च शुभकामना सन्देशाः श्राविताः आसन्। ऊर्जो जलस्रोत सिंचन मन्त्रिणा पम्फा भूषालेन सह नेपालस्य कृते अस्ट्रेलिया देशीयेन राजदूतेन फेलिसिटी जान भोल्क इत्यनेन शिष्टाचार मेलनं विहितं वर्तते। ऊर्जो जलस्रोत सिंचन मन्त्रालये ह्य सम्पन्ने शिष्टाचार मेलने अनयोर्मध्ये द्विपक्षीय सहिताभिरुच्योः विविध विषयेषु विमृष्टम् आसीत्। मेलने मन्त्री भूषालः कोरोना महामार्याः जलवायु परिवर्तनस्य च विषयेषु परस्पर सहकार्यस्य आवश्यकतां प्रादर्शयत्। राजदूतः भोल्क च नेपालस्य आर्थिक्याः मानवीयायाश्च क्षमतायाः अभिवृद्धये अस्ट्रेलिया सर्वकारेण निरन्तरं सहयोगो विधीयते इति विश्वासम् अदापयत्। सर्वोच्च न्यायालयेन नेपालस्य संविधानस्य 44 धारायां स्थितानां दलितवर्गस्य अधिकाराणां सुनिश्चयनत्वेन मासत्रयस्य अभ्यन्तरे अल्पमध्य दीर्घकालिकीः योजनाः निर्मातुम् आदिष्टम् वर्तते। न्यायाधीशयोः डाक्टर आनन्दमोहन भट्टराई इत्यस्य प्रकाश कुमार ढुङ्गाना भिदस्य च संयुक्त न्यायपीठेन ह्यः मासत्रयस्य अभ्यन्तरे आवश्यकं संयन्त्रं संघटय्य योजनां निर्माय च तस्याः प्रभावकारि क्रियान्वयनं विधातुं सर्वकारस्य संघीय संसदस्य नाम्नि आदेशः प्रदत्तोऽस्ति इति समाचाराः।